अद्य का प्रार्थनां करोति अथवा कः? सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. जयश्री भगिनी कर्तुम् इच्छति वा?
आं भगिनि. शुक्लाम्भरधरं विष्णु शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः भगिनि. अग्रे गच्छामः. सो अत्र संस्कृतभारती जनाः किं कृतवन्तः? प्रथमं फार् 31 डेस् एकत्रिंशत्तम दिनाङ्कपर्यन्तं ते सुभाषितानि स्थापितवन्तः. अनन्तरं 120 सुभाषितानि, सो इत्युक्ते 20-100 सुभाषितानि अपि स्थापितवन्तः. तत् वयं पठामः. अस्तु, लता भगिनी पठितुम् इच्छति वा?
आं भगिनि.
धन्यवादः.
धन्यवादः. उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः, न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः.
पुनरेकवारं भगिनि.
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः, न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः.
मृगाः, सो अर्थः क? धन्यवादः भगिनि. उद्यमेन, उद्यमेन इत्युक्ते प्रयत्नेन, प्रयत्नेन एव हि इत्युक्ते अत्र एव कार्याणि सिद्ध्यन्ते, कार्यं कर्तुं शक्नुमः. मनोरथैः इत्युक्ते केवलम् इच्छायाभिः, इच्छयाभिः न. इच्छा अस्ति, इच्छाभिः न, इच्छया न भवति, इच्छाभिः न भवति. यथा सुप्तस्य, सुप्तस्य इत्युक्ते यः निद्रां करोति अथवा शयनं करोति, तादृशसिंहस्य मुखे स्वयमेव मृगाः न आगच्छन्ति, न प्रविशन्ति, अन्तः गच्छति. प्रविशन्ति इत्युक्ते अन्तः न गच्छन्ति. सो अत्र उद्यमेन एव कार्यं सिद्ध्यन्ति, मनोरथैः न. केवलं एवं करणीयम्, एवम् एवम् एवं भवतु इति स्वप्नेन न भवति. सिंहस्य, सुप्तस्य सिंहस्य मुखे मृगाः स्वयं न प्रविशन्ति. सः एतादृशम् उद्यम, प्रयत्नं करणीयमेव. एवमेव मनुष्यस्य प्रयत्नं न, मनुष्यः प्रयत्नं न करोति चेत् किमपि फलं न सिद्ध्यति. केवलम् इच्छाः सन्ति चेत् कार्यं न सिद्ध्यति. सिंहः अत्यन्तं बलवान् अस्ति, सः मृगराजः अस्ति, तथापि सिंहः प्रयत्नं करोति चेदेव आहारं प्राप्नोति. मृगाः स्वयमेव आगत्य सिंहस्य मुखे न पतन्ति. एवमेव वयं प्रयत्नं न कुर्मः चेत् किञ्चिदपि फलं न सिद्ध्यति. अतः वयम् अपि अवश्यं प्रयत्नं कुर्मः इति सुभाषितस्य अर्थः अस्ति. प्रश्नः अस्ति वा? नास्ति इति मन्ये. सुलभसुभाषितमेव. अस्तु, गीतं प्रति गच्छामः वा?
भगिनि
एकवारं शृणुमः अत्र. पुनः शृणुमः, मिलित्वा गायामः. अत्र प्रयत्नं कुर्मः वा?
माता पुत्रीता निर्मल गङ्गा
जय भारत जननी अस्तु अग्रिममपि गातुं प्रयत्नं कुर्मः वा
शिव रघोषित मन्त्र पुलकिता शिव रघोषित पावन चरिता
शिवघोषित
मन्त्र पुलकिता कविवर कुल्पित पावन चरिता
अनन्तरम्पालिता
जय भारत जननी
जय
भारत जननी
जय
भारत जननी जय भारत जननी
अग्रिममपि गायामः वा
मन मन मनसि सदा एव पदयुगलम्
कृत संस्कृति
सतत चिन्तनम्
मम मनसि
सदा पदयुगलम् संस्कृत संस्कृति सतत चिन्तनम्
अत्र ल एव ल न भवति संस्कृते ल एव
मेलनं
जय भारत जय भारत जननी
जय भारत जननी
अस्तु अग्रे अग्रे गच्छामः अत्र वयं पुटद्वयं पठितवन्तः खलु अथवा एकपुटम् अपि च अर्ध अस्तु किम् अभवत् एतावत् पर्यन्तं भारद्वाजः इति ऋषिः आसीत् सः बुद्धिमान् प्राज्ञः तस्य वयः शतं
भगिनि वि आर् डन् टुवर् टिल् हिस् सेकेण्ड् 100 इयर्स् गेटिङ्ग् ओवर्
करेक्ट् करेक्ट् सो वि जस्ट् गेटिङ्ग् अ समरी नौ सारांश जस्ट् टु रिमैण्ड् पीपल् स्मारणार्थं शतायुः अभवत् तस्य सहस्रशः शिष्याः आसन् तदा कः तस्य पुरतः आगतवान् ब्रह्मदेवः ब्रह्मदेवः आगतवान् सः उक्तवान् पुनः भवान् युवकः भवतु इति पुनः
भरद्वाज पुनः शतायुः
अभवत् तस्य शतायुः अभवत् पुनः
पुनः यौवनम् अभवत्
अभवत् अस्तु इदानीम् इतः आरम्भं कुर्मः भारद्वाजः उक्तवान् देव इति अत्र एव स्थापितवान् खलु वयं अस्तु भारद्वाजः उक्तवान् देव मया पूर्वपेक्षया अधिकाधिकम् अध्ययनं कृतं यथा पूर्वं तथापि अधिकया पूर्व अपेक्षया अधिकं ततोपि अधिकाधिकम् अध्ययनं कृतं मया कर्मणि प्रयोग अत्र कृतं मया कृतम् अध्यापनकार्यमपि कुर्वन् अस्मि. अध्यापनम् इत्युक्ते किं
पाठनमपि
सम्यक् पाठनं तदा ब्रह्मा उक्तवान् पुनः आयुः यौवनं च दास्यामि किं करिष्यति इति. अस्तु का पठति निर्मला भगिनी पठति वा कृपया.
आं भगिनि.
हा
तदा ब्रह्मा महात्मन् धन्यवान् कीर्तिमान् भवतु इति उक्त्वा प्रतिनिवृत्तः अहो भरद्वाजस्य अनुकरणीयः निःस्पृहत.
अस्तु सो आरम्भतः पठतु भगिनि. भारद्वाज उक्तवान् भगवान् इति ततः पठतु.
प्रीवियस् पेर
द फस्ट् पेराग्राफ् इन् दिस् पेज्.
भारद्वाजः उक्तवान् भगवान् पुनः अधिकज्ञानार्थम् अध्ययनं करिष्यामि पुनः अपि
अधिकाधिकशिष्यान्
अध्यापयिष्यामि इति. किं विवाहः
प्रथमम् एतत् प्रतिपादयामः. भारद्वाजः उक्तवान् भगवन् भगवान् इति अस्ति भगवत् इति मूलरूपं भगवन् इति सम्बोधन हे भगवन् पुनः अधिकज्ञानार्थम् अध्ययनं करिष्यामि अहम् अपि पठामि अध्ययनं करिष्यामि अहं पठामि पुनः अपि अधिकाधिकशिष्यान् अध्यापयिष्यामि अहं पाठयामि प्रथमम् अहं पठामि अनन्तरम् अहं पाठयामि इति. बहु उत्तमं खलु. कीदृश ऋषिः सः वदति अहम् इतोपि पठनीयम् इति. बहु उत्तमम्. अधिकज्ञानार्थम् अहं प्रथमम् अध्ययनं करिष्यामि पुनरपि अधिकाधिकशिष्यान् इतोपि अधिकशिष्यान् पाठयामि अध्यापयिष्यामि इति. अस्तु अग्रे सन्ध्या भगिनी पठति वा.
आं भगिनि. किं विवाहः पत्नीपुत्रादयः वा न अपेक्षिताः किं सुखं न अभिलषति भवान् इति पृष्टवान् ब्रह्मा. तदनन्तरं ब्रह्मा पृष्टवान् भवान् किमर्थं विवाहः न करिष्यति. अतः सुखं लभते अतः किं विवाहं न करिष्यति इति पृष्टवान्.
अस्तु अपेक्षिता इत्युक्ते अर्थः कः.
डिसैर्
एक्स्पेक्टेशन् इति. एक्स्पेक्टेशन् रिक्वायर्मेण्ट् अभिलषति इत्युक्ते डिसैर्
इच्छति.
सुखं न इच्छति वा भगवान् सुखं न इच्छति भवान् अपेक्षिता इत्युक्ते आवश्यकता नास्ति वा पुत्रादयः न आवश्यकं वा सुखं न इच्छति वा इति पृष्टवान् ब्रह्मा. धन्यवादः भगिनी. सुनन्दा भगिनी
would it be right to say bhagini vivahat sukham na icchati va?
Ah, vivahat sukham sukham na icchati samya
pancham
danya
putra dayaha putra dayaha
putra so atra patni पुत्र आदयः इत्युक्ते आङ्ग्लभाषाम् एट्सेट्रा इति वदामः खलु तादृशं
प्लूरल् आदि भगिनि
आदि आदि आदयः
सवर्णदीर्घसन्धि
पत्नी पुत्र आदयः सम्यक् अस्तु सुनन्दा भगिनी पठितुम् इच्छति वा
हा आं भगिनि भारद्वाजः उक्तवान् देव शिष्याः एव मम पुत्राः वेदं परम्परां रक्षामि सर्वत्र ज्ञानज्योतिः प्रज्वालयामि इतोपि अधिकः आनन्दः परमं सुखं वा किम् अन्यत् स्यात् इति सो भारद्वाज उक्तवान् शिष्याः मम पुत्राः सन्ति वेदपरम्परा रक्षामि च सर्वत्र ज्ञान की ज्योति प्रज्वालयामि मीनिंग ज्ञान की ज्योति ले जाऊंगा
आई विल लाइट द लैंप इति
राइट प्रज्वालयामि
प्रज्वालयामि
या उससे अधिक आनंद परम सुख किम अन्यत्र प्राप्नोमि
इति अस्तु सो अत्र धन्यवाद भगिनी सो अत्र स्यात् इति वदामः तत्र नाम अस्ति विधिलिङ्ग् लकारः इति विधिलिङ्ग् लकार विधिलिङ्ग् लकार इति भवति चेत् तत्र अर्थद्वयम् अस्ति एकमस्ति विधि एवमेव भवतु इति कर्णा चाह्ये तादृशम् अर्थे अस्ति अन्यत् एकमस्ति प्रायः भवति वा इति सो अत्र भवति वा इति अर्थे एव अस्ति अन्यत् स्यात् भवति वा अस्तु सो अतः मम कुटुम्बमेव मम कुटुम्बं मम शिष्याः एव मम कुटुम्बम् अहं मम वेदपरम्परां रक्षामि अन्यत् किमपि न इच्छामि इति सः वदति अस्तु वीणाबेन् भगिनि किं किं महोदय
स्यात् इति
अर्थः अस्ति अर्थद्वयम् अस्ति एकम् अस्ति विधि विधिलिङ्ग् लकारः यथा वयं लट् लकार लृट्
लङ्
इति वदामः सो लोट् इति अत्र विधिलिङ्ग् इति सो विधि इति एक अर्थः अस्ति अन्यत् अस्ति सम्भावना अर्थे सम्भावना इत्युक्ते प्रायः उदाहरणार्थम् अहं वदामि परीक्षा आगता अतः बालकः पठेत् इति इत्युक्ते बालकः पठना चाह्ये तादृश अर्थ हि मस्ट् रीड् इति अर्थे हि शुड् रीड् सो पठना सो तत्र बालकः पठेत् इति अहं मम भावनया आज्ञा इव वदामि बालकः पठेत् इति परन्तु अन्य अर्थः अस्ति सम्भावना इत्युक्ते बालकः पठेत् वा न पठेत् वा न जानामि इति प्रोबेबिलिटि सम्भावना पठेत् वा न पठेत् वा इति न जानामि परन्तु यदा वयं पठामः तत्र एतादृशप्रश्नचिह्नम् अस्ति चेत् सम्भावना प्रश्नचिह्नं नास्ति आश्चर्यचिह्नम् अस्ति चेत् आज्ञा इव पठेत् पठतु इति अर्थे लोट्लकार इव भवति
अत्र प्रश्नार्थचिह्नं भवति
हा प्रश्नचिह्नम् अस्ति सो अतः प्रायः न भवति अस्ति वा न नास्ति इति अर्थे इति अर्थे अन्यत् अस्ति किम् इति अस्तु अन्तिम
भगिनि तदा ब्रह्मा वदति महात्मन् धन्यः भवान् कीर्तिमान् भवतु इति उक्त्वा प्रतिनिवृत्तः अहो भारद्वाजस्य अनुकरणीया निस्पृहता तदा ब्रह्मा वदति महात्मन् धन्यः भवान् आप धन्य हो कीर्तिमान भवतु सदा कीर्ति प्राप्त करो करोतु इति उक्त्वा प्रतिनिवृत्तः इति उक्त्वा गच्छतः
गतः
गतवान् अहो भारद्वाजस्य भारद्वाजस्य अनुकरणीया निःस्पृहता भारद्वाजस्य निःस्पृहता अनुकरणीया हमें अनुकरण करना चाहिए ऐसी है
निःस्पृहता इत्युक्ते
सेल्फलेस
सम्यक् सम्यक्
धन्यवादः
धन्यवादः सो अत्र धन्यः भवान् इत्युक्ते अर्थः धन्यः इत्युक्ते
उत्तम
धन्यवादः इति वदामः खलु तादृश धन्यः धन्यः भवान्
Bhagini, it doesn't mean may you be blessed, is it?
Dhanyaha. So here it means you are thankful. You are thankful, iti arthe.
Blessed?
Yeah. Blessed, no. You have a thankful heart, iti.
Ama. Praiseworthy.
कीर्तिमान् भवतु अर्थः सम्यक् एव परन्तु उदाहरणम् अहं वदामि अहं धन्या अस्मि खलु यु हेव् हर्ड् दट् खलु धन्योऽस्मि मेल्स् वि से धन्योऽस्मि धन्यः अस्मि इट् बिकम् धन्योऽस्मि स्त्रीलिङ्गे धन्या अस्मि इत्युक्ते ऐ एम् ग्रेट्फुल् ऐ एम् थेङ्क्फुल् इति अर्थे
भगिनि दिस् मीन्स् दट् ब्रह्मा इस् थिङ्किङ्ग् भरद्वाजः
ब्रह्मा इस् टेलिङ्ग् भरद्वाजः यु आर् अ ग्रेट्फुल् पर्सन् यु आर् अ थेङ्क्फुल् पर्सन् अत्र पश्यन्तु
एकवारम्
विशेषणम् एक्साक्ट्लि सो वेन् ऐ से अहं धन्यास्मि ऐ एम् थेङ्क्फुल्
भाग्यशाली
क्रियापदं
विशेषणं सो अगेन् वेन् ऐ से धन्या अस्मि दट् इस् अ विशेषणम् बिकास् अस्मि ऐ एम् टाकिङ्ग् अबौट् मै सेल्फ् स्त्रीलिङ्ग सो अतः धन्या
परन्तु अत्र त्वं धन्य अस्ति.
सो देर् आर् मेनि मीनिङ्ग्स् अत्र. यु आर् गुड् वर्चुवस् फार्चुनेट् हेपी एव्रिथिङ्ग् अण्ड् थेङ्क्फुल् आल्सो. Okay, here they are not saying thankful, but you are virtuous.
Virtuous, good.
It's like your life is worth.
It's
not wasted.
It's not wasted. Correct. But in general, when people say dhanyasmi, maybe they are saying I'm fortunate.
Yes,
I'm thankful. When you say dhanyavadah, I am fortunate, probably.
Yeah.
Okay.
I'm fortunate.
Oh, that's a good meaning. I always thought thankful. Asto. Kirtiman. Yasya kirti asti sah kirtiman. Pratinivritte. Asto. Anya prashnah asti va?
प्रतिनिवृत्तः उसका क्या मीनिंग बोला आपने?
सो निवृत्तः इत्युक्ते पुनः गतवान्. प्रतिनिवृत्तः पुनः गतवान्.
ओके, धन्यवादः.
हि रिटर्न्ड् इति अर्थे. निवृत्तः मीन्स् लेफ्ट्. प्रतिनिवृत्तः हि रिटर्न्ड् इति. हि वेण्ट् बेक् इति अर्थे.
So the difference between nivrittah and prati nivrittah is nivrittah
upasargah asti bhagini prati
upasarg prati
nivrittasya shabdasya upasarg prati.
So bhagini, is the difference the fact that nivrittah means gatavan, but prati nivrittah is like returning back and not just
returning back. Prati agachati, same thing. Agachati, coming back. Prati agachati, he is returning back.
Okay.
Prati agachati nivrittaha means he left, not just gatavan, he left that place.
Oh, dhanyavad.
Dhanyavad. So atra when I say dhanyavad, I always thought thankful, but so this story just opened my eyes. Now it's like I am fortunate, like that. They never say thankful. I'm very surprised at that. I thought they would say thankful. So thankful kim bhavati iti pashyama. Oh, kritagnya. Oh, see how specific it is. Kritagnya asmi means thankful. Very interesting. I always thought dhanya. Astu. Vayam saptami vibhaktim pashyamah kalo adya. Punarekavaram उक्त्वा गच्छामः. विष्णुमहोदय.
आं भगिनि.
सर्वनामपदम् उपयुज्य अपि च किमपि नामपदमपि उपयुज्य वदतु कृपया महोदय. त्रीणि रूपाणि.
त्रीणि रूपाणि सर्वनामे उपयुज्य तस्मिन् रामे तयोः रामयोः तेषु रामेषु.
सम्यक्. तेषु रामेषु तस्मिन् रामे मम विश्वासः अस्ति. तयोः रामयोः तेषु रामेषु. सो अत्र तेषु रामेषु इति वदामः चेत् अमङ् इति अर्थे अपि भवति. तेषु रामेषु कोदण्डरामः एव मम प्रियरामः इति तादृशवाक्यं भवति. सम्यक्. अस्तु. श्रीनिवासमहोदय.
भगिनि ऐ एम् औट्सैड् भगिनि सो कीप मी आउट टुडे
अस्तु अस्तु चम्पा भगिनि
आं भगिनि इकारान्त हरि शब्द हरौ हरयोः हरिषु
हरिषु सर्वनामपदं योजयित्वा वदति वा
सर्वनाम सः हरौ
सः इति अस्ति चेत् तस्मिन् हरौ इति भवति
सो सप्तमी विभक्ति हरि हरिवत् सो सः तस्मिन् हरौ तस्मिन् हरौ तयोः हरयोः तेषु हरिषु
तेषु हरिषु सम्यक् जयश्री भगिनी स्त्रीलिङ्गं प्रति गच्छतु कृपया
आं भगिनि तस्यां मत्यां मत्यौ तस्योः तयोः मत्योः तासु मतिषु
तासु मतिषु सम्यक् लता भगिनी स्त्रीलिङ्गे
कस्यां धेन्वां कस्यां धेनौ तयोः धेन्वोः कासु धेनुषु
सम्यक् अस्तु अग्रे निर्मला भगिनी नपुंसकलिङ्गं करोति वा
ज्ञाने तयोः ज्ञानयोः तेषु ज्ञानेषु
तेषु ज्ञानेषु सम्यक् सम्यक् अस्तु सुन अग्रे का सन्ध्या भगिनी खलु
वारिणोः वारिषु तस्मिन् वारिणि तयोः वारिणोः तेषु वारिषु
तेषु वारिषु सो अत्र अहं पुनरेकवारं वदामि अकारान्तपदं वयं जानीमः रामे रामयोः रामेषु ज्ञाने ज्ञानयोः ज्ञानेषु पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपं भवति स्त्रीलिङ्गे यकारः आगच्छति रमायां या इति वद अथवा इ अस्ति चेत् यां भवति उ अस्ति चेत् वा भवति धेन्वां वद्वां धेन्वोः वद्वोः इति ऋकारान्त अस्ति चेत् मातरि मात्रोः ऋकारान्तपदं सर्वत्र समानं पितरि पित्रोः पितृषु मातरि मात्रोः मातृषु एवं धातरि धात्रोः धातृषु इति समानरूपाणि भवन्ति हरौ हर्योः हरिषु मतौ मत्योः मतिषु सो अत्र रूपभेदः नास्ति एव वयं कथं जानीमः अभ्यासेन एव बुद्धिः इति स्त्रीलिङ्गपदं रज्जु इति स्त्रीलिङ्गपदं कथं जानीमः अभ्यासेन एव पुनः पुनः वयं पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति कोशं दृष्ट्वा जानीमः सो अत्र नपुंसकलिङ्गं पदं भवति चेत् नकारः भवति अत्र हरौ मथौ गुरौ इति भवति परन्तु वारिणि वारिणो मधुनि मधुनोः इति भवति अस्तु सो तस्मिन् तयोः तेषु कस्यां तयोः तासु अत्र एव सु भवति आकारान्तस्त्रीलिङ्गपदे सु अपि च सर्वनामपदे अपि सु अन्य सर्वत्र शु एव सर्वत्र शु एव अत्र एव सु भवत् शब्दे अपि सु भवति किमर्थम् इत्युक्ते हलन्तपदम् भवत् भवति भवतोः भवत्सु बहु भिन्न भिन्नरूपम् अस्ति भवत् शब्दस्य स्त्रीलिङ्गमस्ति भवति भवती इति गौरी इव गौरी गौर्यां भवत्यां गौर्योः भवत्योः इति मयि अस्मद् युष्मत् शब्द बहु भिन्नरूपाणि मयि आवयोः अस्मासु मयि आवयोः अस्मासु त्वयि युवयोः युष्मासु इति भवति प्रश्नः अस्ति वा
भगिनी गौरी ह्रस्व दीर्घ इकारान्त
दीर्घ अन्यप्रश्नः
गौरी इति नदीवत् वा
नदीवत् नदीवत् नदी नद्यां नद्योः नदीषु अत्र दीर्घ अस्ति चेत् नदीषु ह्रस्व अस्ति चेत् ह्रस्व एव मतिषु धेनुषु वधूषु
तासु कासु तत्र
स आगच्छति सर्वनामपदे स आकारान्तस्त्रीलिङ्गे स सु इति सु तासु कासु अन्य सर्वत्र शु एव अन्यप्रश्नः अत्र अस्मद्युष्मदपि सु एव अस्मद्युष्मत् सु
भगिनी पुल्लिङ्गः नपुंसकलिङ्गं साधारणतः समानम् अस्ति खलु
आम् आम् अकारान्तपदे समानमेव अकारान्तपुल्लिङ्ग अकारान्तनपुंसकलिङ्गे समानम् अग्रे न वारि वारिणि वारिणोः वारिषु इकारान्तपदं सर्वत्र भिन्नरूपं भवति हरिवत् न भवति
केवलं अकारान्तपुल्लिङ्गशब्दः अकारान्तपुल्लिङ्ग अकारान्तनपुंसकलिङ्ग समानम् अस्ति
समानं भवति तृतीया विभक्ति आरभ्य समानरूपम् परन्तु बहुवचनं समानमेव वारिषु हरिषु मधुषु धातृषु मध्ये नकारः आगच्छति णो मारिणोः अत्र हर्योः गुरुवोः अत्र मा वारिणोः मधु भवतु वारि भवतु नोः वारि नोः मधु नोः इति धातृ नोः
for all napunsakling words or only for vari and madhu
no for all
the
ikaranta ukaranta padani
for all words in napunsakling it will have the na at the end
aama aa
so dhanyawad
anya prashna asti va अस्तु वयं गीतासोपानं प्रति गच्छामः वयम् अत्र स्थगितवन्तः खलु
आं भगिनि
आम् अस्तु सो अत्र अभिरुचिः विषयरूप आधारः सो अत्र विषयः अस्ति गीता इति स्थानं नास्ति उत्पीठिका गृहं तादृशस्थानं नास्ति स्थलं नास्ति दृढस्थलं नास्ति परन्तु विषयः एव सो अत्र विषयरूप आधारः अत्र अपि सप्तमीविभक्तिरूपं भवति गीतायाम् इति परन्तु मम अभिरुचिः मै मम अभिरुचिः षष्टिविभक्ति भवति अन्यविधवाक्यमपि भवति खलु गीतायाम् अहम् अभिरुचिं प्रदर्शयामि स्थापयामि अहम् इति वदामः चेत् अभिरुचिं प्र प्रदर्शयामि अथवा गीतायां मम अभिरुचिः अस्ति. प्रथमाविभक्तिरूपम् अस्ति अत्र. द्वितीयाविभक्तिरूपमपि भवितुम् अर्हति. गीतायाम् अहम् अभिरुचिं प्रदर्शयामि इति. अवगच्छन्ति वा भेदः कः इति?
भगिनी, द्वितीयाविभक्ति अभिरुचिम् अस्ति.
खलु द्वितीया विभक्ति. अहं लिखामि अत्र. सो अत्र अहम् अहम् इति वदामि चेत् मम स्थाने अहम् अभिरुचिम् इति वदा अहम् इति वदामि चेत् अभिरुचिः न भवति. अहम् अभिरुचिं प्रदर्शयामि.
सो अहं गीतायाम् अभिरुचिम् अस्ति.
न, गीतायां मम अभिरुचिः अस्ति. अस्ति इति अस्ति चेत् प्रथमाविभक्तिरूपम्. अस्ति इति अस्ति चेत् सर्वदा प्रथमाविभक्तिरूपमेव. अभिरुचि अन्य क्रियापदम् अस्ति चेत् भिन्नरूपं भवति. सर्वदा प्रथमाविभक्ति इति न वक्तुं शक्नुमः. परन्तु अस्ति, भवति, एतादृश क्रियापदम् अस्ति चेत् सर्वदा प्रथमाविभक्तिरूपम् एव.
That's good point. I don't know that one.
आमाम्. अस्ति, भवति अस्ति चेत् प्रथमाविभक्ति. उदाहरणार्थं मम गीतायाम् अभिरुचिः अस्ति. सो हौ डु वि स्टार्ट् टु अनलैस् अ सेण्टेन्स्? प्रथमं क्रियापदं किं? क्रियापदम् अस्ति, अस्ति. किम् अस्ति? अभिरुचिः अस्ति. सो इट् इस् आल्वेस् प्रथमाविभक्ति. अभिरुचिः अस्ति. कुत्र अभिरुचिः अस्ति? गीतायाम् अभिरुचिः अस्ति. कस्य अभिरुचिः अस्ति? ओ, मम अभिरुचिः एव. अत्र गीतायाम् अहं मम अभिरुचिं प्रदर्शयामि. तदपि सम्यक् एव. अहं मम अभिरुचिं गीतायाम् अहं मम अभिरुचिं प्रदर्शयामि. सो अत्र प्रदर्शयामि. किं प्रदर्शयामि? अथवा प्रथमं वि आल्वेस् हाव् टु फैण्ड् औट् द कर्ता. कर्ता किम् एव प्रथमं निर्णयं करणीयम्. सो अत्र अपि अस्ति. किम् अस्ति? अभिरुचिः अस्ति. सम्यक्. प्रथमं. सो दट् इस् द फस्ट् स्टेप्. फस्ट् स्टेप् क्रियापदं. दिस् इस् द सेकेण्ड् स्टेप्. सो अत्र क्रियापदं प्रदर्शयामि. किं कः प्रदर्शयामि? सो प्रदर्शयामि इति अस्ति. सो अतः अहमेव. अहं किं प्रदर्शयामि? सो अत्र कर्मपदं भवति. अभिरुचिं प्रदर्शयामि. कुत्र अभिरुचिं प्रदर्शयामि? गीतायां. कस्य अभिरुचिं? मम अभिरुचिमेव.
भगिनि, मम की जग तव हो गातव्य कैसा वाक्य बनेगा? तव
इत्युक्ते लैक् मध्यमपुरुष खलु.
युष्मत् शब्दस्य
मध्यमपुरुष न, षष्टिविभक्ति. युष्मत् शब्दस्य षष्टिविभक्ति. त्वम् इति मध्यमपुरुष इव भवति खलु. त्वं शब्दस्य षष्टिविभक्ति. युष्मद् शब्दस्य त्वम् इव भवति. युष्मद् शब्दस्य
त्वं गीतायाम् अभिरुचिः अस्ति.
तव गीतायाम् अभिरुचिः अस्ति. सम्यक् भगिनि.
गीतायां तव अभिरुचिः अस्ति. अहं तादृशं वक्तुम् इच्छामि. किमर्थम् इत्युक्ते षष्टिविभक्ति अस्ति चेत् पार्श्वे एव अन्य पदं स्थापयामि चेत् स्पष्टं भवति मम कृते. गीतायां तव अभिरुचिः अस्ति.
त्वं गीतायां तव अभिरुचिम् अस्ति.
अभिरुचिम् अभिरुचिं प्रदर्शयति
प्रदर्शयति. तव अभिरुचिं प्रदर्शयति
प्रदर्शयति प्रकटयति. अस्तु कस्य पयै सन्ध्या भगिनी उक्तवती खलु सुनन्दा भगिनी अग्रे.
आं भगिनि
एतत् एतत् करोतु भगिनि महामतिः.
मम मतिः स्वधर्मयाम् अभिरुचिः अस्ति.
न सो अत्र अभिरुचिः अत्र अस्ति खलु सो एकनिमिषम् अहं
स्वधर्मस्य
स्वधर्मस्य न सो अत्र
स्वधर्मे
स्वधर्मे
सप्तमी
गीता इति अस्ति सो गीतायां स्वतः स्वधर्मः स्वधर्मे
स्वधर्मे राइट् मम मतिः स्वधर्मे अभिरुचिः अस्ति.
अभिरुचिः मति एव
मम
मति
अत्र उदाहरणम् एवं स्वीकृत्य उदाहरणमस्ति. गीतायाम् अभिरुचिः अत्र अस्ति. उदाहरणम् अनुसृत्य भिन्नरूपं भवतु अत्र
मम
अत्र स्वधर्मे मम
मम स्वधर्मे अभिरुचि मतिः अस्ति
मतिः अस्ति स्वधर्मे मम मतिः अस्ति अथवा मम मतिः कुत्र अस्ति स्वधर्मे अस्ति
स्वधर्मे अस्ति
मम मतिः संस्कृतपठने अस्ति. मम मतिः दूरदर्शने अस्ति चित्रमन्दिरे अस्ति तादृशम्
अहं स्वधर्मे मम मतिः प्रदर्शयति
मम मतिं स्थापयामि प्रकटयामि दर्शयामि. कृष्णा भवति खलु मम मतिं स्थापयतु इति तादृशं कुत्रापि भवति वा
भगिनि? मति इत्युक्ते इण्ट्रेस्ट् वा?
इण्ट्रेस्ट् मम मैण्ड् बुद्धि तादृशं मति.
धन्यवादः
इति अहं चिन्तयामि भगिनि. अस्तु अस्तु अग्रे वीणाबेन् भगिनि.
आं भगिनि मम गुरौ विश्वासः अस्ति.
मम गुरौ
गुरौ विश्वासः अस्ति. मम गुरौ विश्वासं स्थापयामि मम गुरौ विश्वासं स्थापयामि
विश्वासं स्थापयामि. अहं सर्वदा षष्टिविभक्ति अस्ति चेत् अन्यपदं पार्श्वे एव लिखामि अहं सो अत्र स्पष्टं भवति गुरौ मम विश्वासः अस्ति. मिलित्वा वदामि मम विश्वासः मम गुरौ अस्ति. मम विश्वासः इति मिलित्वा वदामि चेत् तथा स्पष्टं भवति मम कृते. अस्तु विष्णुमहोदय.
आं भगिनि मम संस्कृते
भ्रमः भवति
संस्कृते
मम अभिमानः
मम अभिमाने
मम अभिमानः मै अभिमानः
अभिमानः
वाट् अभिमानः इत्युक्ते किम्
ईगो प्राइड
आदरः इव
प्राइड प्राइड आदरः
रिस्पेक्ट् खलु अभिमान इत्युक्ते न वा
मम संस्कृते अभिमानः अस्ति अथवा अहं संस्कृते मम
संस्कृतम् अस्ति चेत् संस्कृते अत्र संस्कृतिः इति अस्ति इकारान्तपदम् इकारान्तपदम् अस्ति चेत् रूपं किम्
मम संस्कृत्याम् अभिमानः अस्ति अथवा अहं संस्कृत्याम् मम अभिमानं स्थापयामि प्रदर्शयामि
प्रदर्शयामि प्रकटयामि स्थापयामि सम्यक्
धन्यवादः
धन्यवादः अस्तु चम्पा भगिनि
आं भगिनि रुचिः कार्यं मम कार्ये रुचिः अस्ति अहं रुचिः
कार्ये परिवर्तनं न भवति कार्ये इति पदस्य परिवर्तनं न भवति
कार्यं सप्तमी
सो अतः एव अहं वदामि प्रथमम् एतत् वदतु कार्ये मम अभिरुचिः अस्ति मम कार्ये
अभिरुचिः अस्ति देन् अहं रुचिं
विभक्ति प्रथमा विभक्ति अथवा द्वितीया विभक्ति
रुचिम् अहं रुचिं अभिरुचिं प्रदर्शयामि
स्थापयामि प्रकटयामि कथं प्रकटयामि सम्यक्तया कार्यं करोमि श्रद्धया कार्यं करोमि तादृशं किमर्थं श्रद्धया कार्यं करोति किमर्थम् इत्युक्ते मम रुचिः अस्ति कार्ये मम रुचिः अस्ति अतः कार्ये अहं मम रुचिं प्रकटयामि प्रदर्शयामि दर्शयामि जयश्री भगिनि
आं भगिनि मम मातरि भक्तिः अस्ति अस्माकं
भक्तिः अस्ति अस्ति एव किमर्थम् इत्युक्ते भक्तिः एकवचनमेव
ओ ओके मम मातरी अहं मातरी मम भक्तिः प्रदर्शयामि
अत्र भक्तिं भवति
भक्तिं प्रदर्शयामि
मातरी मम भक्तिं प्रदर्शयामि सो अत्र किम् अस्ति चेत् भक्तिं कथं प्रदर्शयति? अहं किमपि कार्यं करोमि, मम माता अस्ति, मातुः कृते अहं किमपि कार्यं करोमि, किमपि क्रीणामि, पाकं करोमि, किमपि करोमि, अन्य वदति किमर्थम् एतत् करोति? मातरि मम भक्तिः अस्ति, अथवा मातरि मम भक्तिं दर्शयामि, एतानि कार्याणि कृत्वा अहं दर्शयामि, अहं प्रकटयामि इति. अवगच्छन्ति वा भेदः? अस्तु, प्रश्नः अस्ति अस्ति चेत् पृच्छन्तु. लता भगिनी अग्रे.
आं भगिनि, मम संस्कृते प्रीतिः अस्ति. मम
संस्कृते आरम्भं करोतु. संस्कृते
मम प्रीतिः अस्ति. प्रीतिं अहं संस्कृतस्य कृते वा प्रीतिं प्रकटयामि?
संस्कृते एव, संस्कृते इट् डसन्ट् चेञ्ज्. संस्कृते मम प्रीतिः अस्ति. संस्कृते अहं प्रीतिं दर्शयामि.
ओ, संस्कृते अहं प्रीतिं दर्शयामि. ओ, धन्यवादः. प्रदर्शयामि,
प्रदर्शयामि, प्रकटयामि,
प्रकटयामि. ओके,
संस्कृतस्य प्रीतिं भवती उक्तवती खलु, संस्कृतस्य
कृते. संस्कृतस्य कृते,
संस्कृतस्य कृते अहं प्रीतिं दर्शयामि,
प्रकटयामि,
प्रकटयामि. तदपि सम्यक् एव. संस्कृतस्य कृते अहं कार्यं करोमि. किमर्थं कार्यं करोति? मम
प्रीतिः अस्ति,
अस्ति मम प्रीतिः अस्ति, अतः मम प्रीतिं दर्शयामि. परन्तु संस्कृतस्य कृते इति अस्ति चेत् अपि सम्यक् एव. अस्तु अस्तु, अग्रे निर्मला भगिनी.
भगिनी, मम प्रीतिं दर्शयामि वा?
अहं मम प्रीतिं दर्शयामि.
अहं
दर्शयामि. वी केन् एड् मम प्रीतिं दर्शयामि. न न, सम्यक् एव. निर्मला भगिनी,
गुरुधर्मे अनासक्तिः अस्ति.
परधर्मे मम अनासक्ति अस्ति. आसक्तिः अनासक्ति, आसक्तिः इत्युक्ते
इण्ट्रेस्ट्,
इण्ट्रेस्ट्, इण्ट्रेस्ट्.
भगिनि, परधर्मे मम अनासक्तिः अस्ति.
ऐ एम् नाट् इण्ट्रेस्टेड् इन् अदर् पीपल्स् वर्क् धर्म.
Oh, okay.
I just do my own duty. Paradharme aham mama anasaktim prakatayami. So atra paradharmasya krite iti na samyakna. संस्कृतस्य कृते अहं कार्यं करोमि, परन्तु मम प्रीतिं दर्शयामि इति सम्यक् न इति अपि चिन्तयामि भगिनि. तथा भगिनी एव उक्तवती खलु तादृशम्. अस्तु अस्तु, सो अत्र अभिरुचिम् इति वदामः चेत् तादृशं भवति. अहम् अस्ति अस्ति चेत् अभिरुचिः. अस्तु, सो अत्र अग्रे अग्रे गच्छामः. स्वस्य
भगिनी अहम् अस्ति अहम् अस्मि
अहम् अस्मि अहं किं किम् उक्तवती इत्युक्ते अभिरुचिः इति वदति चेत् अस्ति. अहम् इति वदामि चेत् अभिरुचिं भवति.
धन्यवादः.
धन्यवादः. स्वस्य वर्धनाय कुत्र कुत्र आसक्तिः भवतु, कुत्र कुत्र आसक्तिः मास्तु. सो अत्र मा अस्तु, मास्तु इति निर्णयत निर्णयं करोतु इति. धर्मे आसक्तिः भवतु, धर्मे आसक्तिः भवतु. अस्तु, सन्ध्या भगिनि. मोहे
धर्मे आसक्तिः मोहे आसक्तिः मा भवतु,
मा भवतु अथवा मास्तु. मा भवतु अथवा मास्तु अपि सम्यक्. मोहे मास्तु.
न भवतु सम्यक् अस्ति वा? मोहे आसक्तिः न भवतु.
मा अपि सम्यक्, न अपि सम्यक्.
अस्तु,
मा भवतु न भवतु, परन्तु मा एव अहम् इच्छामि. अस्तु, सुनन्दा भगिनि. लोभः इत्युक्ते किं, मोहः इत्युक्ते किम्? मोह इत्युक्ते किम्?
इल्यूजन्.
इल्यूजन् बिकास् आफ् illusion, and then it becomes confusion, right? Confusion, illusion.
Not attachment, Bhagin.
Because of attachment, you get the illusion.
Because right. Of illusion, there is attachment, right?
Hand in hand. Lobaha?
Greed.
अस्तु, अग्रे सुनन्दा भगिनि. म्यूट् मध्ये अस्ति भगिनि. किमपि समस्या इति, आडियो समस्या इति चिन्तयामि. अग्रे उर्मिला भगिनि.
लोभे आसक्तिः मा भवतु.
अत्र मास्तु अपि सम्यक् इति अस्ति अत्र. मास्तु, मा भवतु. अस्तु, वीणाबेन् भगिनि.
आं भगिनि, सत्सङ्गे आसक्तिः भवतु.
भवतु, सत्सङ्ग इत्युक्ते
सज्जनकसङ्घ.
सज्जनानां सङ्घ. अस्तु, विष्णुमहोदय.
आं भगिनि, त्यागे आसक्तिः भवतु.
भवतु, त्यागः इत्युक्ते
रेनन्सियेशन्.
अस्तु, किमपि वयं इच्छामः तत् त्यजामः.
सेक्रिफैस् अपि सम्यक्.
आमां, सेक्रिफैस् सम्यक् सेक्रिफैस्. अस्तु, अग्रे चम्पा भगिनी. पुण्यम्.
आं भगिनि, पुण्ये आसक्तिः भवतु.
भवतु. अस्तु, जयश्री भगिनी.
कीर्त्यौ आसक्तिः भवतु.
आसक्तिः मास्तु, खलु? मास्तु. कीर्तिः इति अर्थः कः?
फेम्. फेम्.
अत्र कीर्ति इत्युक्ते रूपं कथं भवति, उदाहरणं रात्रिः, स्त्रीलिङ्गपदं रात्रिः. रूपं किम्?
कीर्त्यौ.
यौ न, न, न.
कीर्त्यां.
कीर्त्याम् अथवा कीर्तौ. कीर्तौ, यकारः नास्ति.
कीर्तौ.
कीर्तौ.
कीर्तौ. कीर्त्यां.
कीर्तौ अथवा कीर्त्यां. सम्यक्. कीर्तौ अथवा कीर्त्यां. सम्यक्. अस्तु, मा मा भवतु. अस्तु, अग्रे.
मास्तु.
मास्तु. पापं मास्तु. झटिति. अस्तु, अग्रे. साधना. जयश्री भगिनी.
साधना.
अस्तु, उक्तवती. लता भगिनी. लता भगिनी.
आं भगिनी, एक संशयः अस्ति. कीर्तिः, कीर्त्यां कथं लिखामि भगिनि? की इर् वै पुट् इर् ओके.
ह्रस्व तकारान्त.
ह्रस्व. हलन्त तकारान्त.
सो अट् द स्टार्ट् आफ् ए यु हाव् टु रैट् दट्, नाट् अट् दि एण्ड् आफ्.
एण्ड् ओन्लि.
ओके ओके.
End only.
Oh, at the end only. Oh, okay. Okay, okay. Keetyam. Oh, okay. Dhaniwadam.
Keetyam. Atava keetau katam likamaha. Keetau. Eva.
Keetau is okay. Keetyam, I don't know where to put that ear.
Ama.
Okay, okay. Dhaniwadam.
Dhaniwadam. Astu. पापम् अभवत्, इदानीं साधना.
पापम् अभवत्. साधना. साधना. साधना अर्थं किं भगिनि?
साधना बुद्धिः. अहम् एतत् साधनीयम् एव इति.
ओ ओके. साधनायाम् आसक्तिः भवतु.
भवतु. अस्तु. भवतु. अस्तु, अग्रे. निर्मला भगिनी अभवत् वा?
पठनं.
भोगः.
भोगे आसक्ति मास्तु.
मास्तु. भोगः इत्युक्ते एक्सेसिव् एञ्जाय्मेण्ट् इति खलु, तादृशम्. अस्तु, सन्ध्या भगिनी, पठनं.
पठने आसक्तिः भवतु.
भवतु. सम्यक्. अस्तु, अग्रे.
शान्त्याम् आसक्तिः भवतु.
भवतु. अस्तु, अभवत्. अस्तु, अग्रिमे कोष्टके किमस्ति? सर्वनामपदानि. सर्वनामपदानि पुल्लिङ्गे नपुंसकलिङ्गे च समानं. तस्मिन्, तयोः, तेषु. स्त्रीलिङ्गे तस्यां, तयोः, तासु. एतत् अस्ति एतस्मिन्. केवलम् ए योजनीयम्. एतासु. अत्रापि किं शब्दः तकारस्य स्थाने ककारः तावदेव एव भेदः. सो वयम् एतत् जानीमः चेत् सुलभाय भवति. कस्मिन् कयोः केषु, यत्र ते अस्ति तत्र के, कस्यां कयोः कासु. भवत् शब्दः भिन्नशब्दः, भवति इति भवति, भवति. सो अत्र किम् अस्ति इत्युक्ते भवत् शब्दः अस्ति चेत् तकारः अस्ति खलु, तकारः, तकारं योजयित्वा अत्र भवति ति तकारः, तो भवतोः तकारः, भवतोः भवत्सु. अग्रे वयं पठामः, परन्तु ज्ञानार्थं वदामि. आत्मन् शब्दः नकारान्तपदम्. सो अत्र आत्मनि, आत्मनोः, आत्मसु, नकारः न भवति. अन्य किम् अस्ति, भव तकारः, नकारः, अन्य उदाहरणं विद्यार्थिन्, नकारः अस्ति विद्यार्थिन्. सो अत्र कथं भवति, विद्यार्थी
विद्यार्थोः,
विद्यार्थिनि, विद्यार्थिनोः, सम्यक् विद्यार्थिषु एवं भवति, विद्यार्थिषु, विद्यार्थिषु वा सु वा विद्यार्थि.
But Bhagini, I was just about to ask you that. I noticed that everywhere else it is sha for purlinga and sa for strilinga.
But
in the bhavat shabd alone, I noticed it is sa for purlinga and sha for, it's the opposite.
Yeah, because this is bhavat takaranta astikalo. So for the halanta rupani, this is the root. हलन्त मूलपदम् अस्ति चेत्.
सो वाट् आर् दि अदर् वर्ड्स् इन् देट् फेमिलि? भगवत्
भगवान्, भगवत्, भगवत्. सो विषये भगवती,
भगवतोः, भगवत्सु,
भगवत्सु, भगवत्सु, एवम् एवं भवति. ऐ मीन् ऐ डैग्रेस्ट् बट् जस्ट् फार् ज्ञानार्थम्. सो अत्र भवती इति स्त्रीलिङ्गवत् ईकारान्त, नद्यां वत्, नद्यां, नद्योः, नदीषु, भवत्यां, भवत्योः, भवतीषु. सो दिस् बिलाङ्ग् बिहेव्स् लैक् अ स्त्रीलिङ्गपदम्, ईकारान्त स्त्रीलिङ्गपदम्. सर्व इति पदं, सर्वस्मिन्, सर्वयोः, सर्वेषु, सर्व इट्स् लैक् अ पुल्लिङ्गपदं. सर्वा स्त्रीलिङ्गपदं, सर्वासु, मयि आवयोः, अस्मासु. सो अत्र अस्मद् दकारान्तपदं, बट् इट् बिहेव्स् डिफ्रेण्ट्लि. मयि आवयोः, अस्मासु, त्वयि तवयो, युवयोः, युष्मासु. यु अस्ति अतः यु यु सर्वत्र, अ अस्ति अतः आवयोः, अस्मासु. ओके, अभ्यासं कुर्मः सर्वनामपदम् उपयुज्य. अस्तु, सुनन्दा भगिनी, प्रथमम् उदाहरणम् एवमस्ति. उदाहरणं, बालः एतस्मिन् विनयं प्रदर्शयति. सो अत्र अत्र पश्यतु, एतस्मिन् सप्तमी विभक्ति, प्रदर्शयति. सो अत्र द्वितीया विभक्ति भवति. बालः एतस्मिन् विनयं प्रदर्शयति. सो अत्र प्रथमा विभक्ति आगच्छति चेत् कथं लिखामः?
प्रदर्शयामि,
न बालः एव, बालः एव. सो अत्र बालः एतस्मिन् विषये न जानामि कः विषयः इति, परन्तु एतस्मिन् विषये विनयं प्रदर्शयति एतस्मिन् विनयं प्रदर्शयति सो अत्र ओके मास्तु कन्फ्यूशन् मास्तु प्रथमं एतत् कुर्मः अनन्तरं पश्यामः अस्तु सुनन्दा भगिनि द्वितीयं करोतु कृपया
सः
सः न भवति बालः सर्वत्र बालः एव
ओके बालः सः
सः इति स्थाने सप्तमी विभक्ति
ओ ओके सः ओके बालः
सो भगिनि सुलभः रीतिः अस्ति अत्र सः एषः सः वयं जानीमः चेत् एषः सुलभः एव खलु अत्र 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 पश्य सः इति अस्ति चेत् तस्मिन् एषः एतस्मिन् उदाहरणे एतस्मिन् अस्ति सो अतः सः कथं भवति
तस्मिन्
तस्मिन् अस्तु सम्यक् ए इति त्यजतु
तस्मिन् सो बालः तस्मिन्
तस्मिन् सम्यक्
विनयं प्रदर्शयति
सम्यक् तस्मिन् विनयं प्रदर्शयति विनयम् इत्युक्ते
रिस्पेक्ट्
अदरयं
पोलैट्नेस्
पोलैट्नेस् ह्यूमिलिटि देर् आर् मेनि वेस् टु से पोलैट्नेस् ऐ लैक्
पोलैट्नेस्
पोलैट्नेस् आदरः सम्यक् अत्र आदरं प्रदर्शयति ह्युमिलिटि इस् फार् विनयं क्षम्यताम् अस्तु अग्रे उर्मिला भगिनी भवान् शब्दस्य सप्तमी विभक्ति
बालः भवति
भवति
भवति प्रीतिं प्रदर्शयति वा करोति वा प्रकटयति
प्रकटयति सम्यक् अस्तु अग्रे वीणाबेन् भगिनि
बालः त्वयि वात्सल्यं प्रदर्शयति
सम्यक् त्वयि त्वयि वात्सल्यं प्रदर्शयति अस्तु चम्पा भगिनि
आं भगिनि कः प्रेम कः कस्मिन्
कस्मिन्
कस्मिन् बालः कस्मिन् प्रेमं प्रदर्शयति
प्रदर्शयति करोति
प्रकटयति करोति प्रकटयति
अग्रे जयश्री भगिनि
विच् वन् भगिनि
भवति
भवति बालः भवत्यां
भवत्यां
स्नेहं करोति
स्नेहं करोति सम्यक् अस्तु अग्रे लता भगिनि
बालकः तस्यां सोरि
सम्यक् एव
तस्यां करेक्ट् ओके तस्यां नम्रतां प्रदर्शयति
नम्रतां प्रदर्शयति नम्रताम् इत्युक्ते
पोलैट्नेस्
पोलैट्नेस् ह्युमिलिटि अस्तु प्रदर्शयति अस्तु अग्रे सन्ध्या भगिनी खलु
पादः मयि श्रद्धां प्रदर्शयति.
मयि श्रद्धां प्रदर्शयति अस्तु. मयि अस्तु. अग्रे सुनन्दा भगिनी.
आं भगिनि, एते राइट,
एते
शङ्कां करोति. ओके. ते
बालः
तेषु बालः तेषु शङ्कां करोति.
शङ्कां करोति. ओके अस्तु. उर्मिला, उर्मिला भगिनी,
तयोः अपि सम्यक् भगिनी.
द्विवचनं वा? अस्तु,
द्विवचनं.
स्त्रीलिङ्ग नपुंसकलिङ्ग सम्यक्. स्त्रीलिङ्ग सम्यक् एव.
बालः भवत्सु मैत्रीं करोति.
भवत्सु मैत्रीं करोति. अत्र सर्वत्र एकवचनं बहुवचनमेव, परन्तु द्विवचनमपि सम्यक् एव. अस्तु अस्तु. अग्रे उर्मिला भगिनी उक्तवती, वीणाबेन भगिनी.
एते एतव्यं न एतयोः
एतयोः अथवा
एनयोः
न न बहुवचनं किम्?
एतासु
एतेषु.
ओके. एतेषु
एतेषु
बालः.
स्त्रीलिङ्ग नपुंसकलिङ्ग समानरूपं खलु? एतयोः तयोः समानरूपं द्विवचनं. परन्तु ते अस्ति चेत् केवलं शु एव. एतयोः अथवा एतेषु. एतेषु सौजन्यं प्रदर्शयति. सौजन्यम् इत्युक्ते
कर्टसि.
अस्तु अस्तु, वयं समापयामः एतत् कृत्वा. ओके, किञ्चित् समयम् अपेक्षते. समयः अपेक्षते. ऐ नीड् सम् मोर् टैम्, जस्ट् टु मोर् मिनिट्स्. ताः कथं कथं भवति विष्णुमहोदय?
तासु गौरवं प्रकटयति.
भवत्यः मिलित्वा कुर्मः.
एतासु
भक्तिं प्रकटयति अथवा प्रदर्शयति करोति. एताः
एतासु
युष्मासु कृपां वयम्
अस्मासु
प्रकटयति. अग्रिमवर्गे किं कुर्मः? यथा वयम् अत्र अभिरुचिः अस्ति मम इति उक्तवन्तः खलु, तादृशम् अत्र कुर्मः. इत्युक्ते वाक्यं कथं भवति? तस्मिन् अस्तु, वयं चिन्तयित्वा आगच्छन्तु. अत्र विनयः अस्ति इति अस्ति चेत् कथं भवति इति. विनयः अस्ति सो अत्र प्रदर्शयति करोति न आगच्छति.
बालस्य
सम्यक् बालस्य
एतस्मिन् प्रदर्शयति.
सो अत्र प्रथमं सप्तमी विभक्तिं लिखामः, अत्र भ्रमः न भवति, अट्लीस्ट् फार् मी. तस्मिन् विषये कस्य अहं दोषं कृतवती? विनयः अस्ति तस्मिन् विषये विनयः अस्ति. कस्य विनयः अस्ति?
बालस्य.
बालस्य
तस्मिन् विषये विनयः अस्ति.
सो अत्र अहम् एवं लिखामि, तस्मिन् विषये प्रथमं तथा एव अहं लिखामि. तस्मिन् विषये ब्राकेट्, तस्मिन् विषये बालस्य विनयः अस्ति. एवं कुर्मः तदा वयं ज्ञातुमपि शक्नुमः पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा इति. उदाहरणार्थं विनयः, आदरः, प्रीतिः, वात्सल्यं वात्सल्यमेव, प्रेम प्रेम एव, स्नेहं वा स्नेहः वा?
स्नेहः.
स्नेहः.
नम्रतां वा नम्रताः?
नम्रता.
एतादृशज्ञानं प्राप्नुमः, अस्तु वा? एतादृशज्ञानं प्राप्नुमः. सो अतः एतत् आरम्भं कुर्मः, अग्रिमवर्गे इतः आरम्भं कुर्मः. अस्तु, धन्यवादः. इदानीं शान्तिमन्त्रम् उक्त्वा समापयामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सुखमयाः,
हरि ओम् श्री गुरुभ्यो नमः. हरि
ओम्.
धन्यवादः.
धन्यवादः.
धन्यवादः.